एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयोपवेशेन दलस्य उपाध्यक्षं वामदेव गौतमं राष्ट्रिय सभाया सदस्यं निर्मातुं निर्णीतं वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने गतदिने उपविष्टेन सचिवालयोपवेशेन राष्ट्रपतिना मनोनेत व्याय राष्ट्रिय सभाया एकस्मै सदस्याय उपाध्यक्षस्य गौतमस्य नाम परिषदा निर्णीय राष्ट्रपतेः समक्षं परामृष्टुं निर्णीतमिति नेकपा दलस्य प्रवक्ता नारायणकाजी श्रेष्ठः अज्ञापयत्। उपवेशेन संविधानं संशोधयितुं नेकपा दलेन कार्यदलं निर्मितं नास्तीति च स्पष्टीकृतं वर्तते। प्रतिनिधि सभाया ह्यस्तनोपवेशेन शिक्षा सम्बद्धान् कतिचित् नेपालादि नियमान् संशोधयितुं निर्मितं गत विक्रमाब्दीयं विधेयकम् एतद् विक्रमाब्दीये बीजजात द्वितीय संशोधन विधेयकम् विरुत् संरक्षण प्रथम संशोधन विधेयकम् च सर्वसम्मत्या पारितीकृतानि वर्तन्ते। उपवेशे अर्थमन्त्रिणा डाक्टर युवराज खतिवडा विधेयेन कोषागार वित्तीय संस्था सम्बद्धम् एतद् विक्रमाब्दीय प्रथम संशोधन विधेयकम् आश्रित्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः उपवेशेन बहुमतेन स्वीकृतोऽस्ति। तत्पूर्वम् उपवेशे सांसदाः भ्रष्टाचार विषये अनुसन्धान समितिमेव संघटय्य भ्रष्टाचारे संलग्नान् दण्डनस्य परिधौ आनेतुं लिम्पियाधुरा लिपुले कालापानी क्षेत्रस्य सीमा समस्यां समाधातुं च सर्वकारस्य ध्यानम् आकर्षयन्। सांसदाः पूर्व संचार मन्त्रिणः गोकुल प्रसाद बास्कोटा विधस्य सप्ततेः कोटीनाम् अनुचितार्थिक लाभ सम्बद्धम् संवाद विषयम् प्रधानमन्त्रिणा संसदि स्पष्टीकर्तुम् अभ्ययाचन्त। उपवेशे पूर्व प्रधानमन्त्री डाक्टर बाबुराम भट्टराई कस्मैश्चित् प्रधानमन्त्रिणः अपेक्षया जनतया निर्वाचितस्य कार्यकारिणः कृते संविधानस्य संशोधनाय आह्वयत्। प्रतिनिधिसभाया ह्यस्तनोपवेशस्य प्रश्नोत्तर कार्यक्रमे सांसदैः पृष्टान् प्रश्नान् उत्तरयन् वन वातावरण मन्त्री शक्ति बस्नेत अवोचत् राष्ट्रपति चूरे तराई मधेस संरक्षण कार्यक्रमः राष्ट्रिय गौरवस्य योजनायाः रूपेण अग्रे वर्धमानोऽस्ति। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। प्रतिनिधिसभायाः उद्योग वाणिज्य श्रमोपभोक्तृहित समितेः उपवेशे गार्हस्थ श्रमिकाणां रूपेण खाद्य राष्ट्रे प्राप्तानां श्रमिकाणाम् अवस्थां ज्ञातुं समितेः सदस्यानां भ्रमणं निर्धारितमस्ति इति समितेः सभापतिः विमलः श्रीवास्तवः ज्ञापयति। सिंहप्रासादे ह्य उपविष्टे समितेः उपवेशे सभापतिः श्रीवास्तवः परश्व फाल्गुनस्य सप्तदश दिनांकात् ऊनत्रिंशं दिनांकं यावत् समितेः सदस्यानां ओमान सऊदी अरब संयुक्त अरब इमिरेट्स राष्ट्रेषु अनुगमन भ्रमणाय कार्यक्रमः निर्धारितोऽस्तीति अज्ञापयत्। उपप्रधान रक्षामन्त्री ईश्वर पोखरेलः भासते राष्ट्रिय सुरक्षा प्रणालीं विकसय्य राष्ट्रिय शान्ति सुरक्षयोः प्रभावकारी व्यवस्थायै सर्वकारः प्रतिबद्धो वर्तते। सर्वकार संघटनस्य वर्षद्वयस्य अवधौ रक्षा मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने उपप्रधानमन्त्री पोखरेलः भासत राष्ट्रस्य समग्र सुरक्षायै नेपाली सेना प्रवृत्तिनां सुरक्षा संयन्त्राणां सबलीकरणस्य व्यावसायिकीकरणस्य समावेशीकरणस्य जनोत्तरदायितायाश्च विषयाः सर्वकारेण उच्च प्राथमिकतया अग्रे वर्धापिताः सन्ति। असौ सुरक्षा सम्बद्धाया उच्च शिक्षायाः अध्ययनानुसन्धानयोः कृते राष्ट्रिय सुरक्षा विश्वविद्यालयस्य स्थापनायाः प्रक्रिया अग्रे वर्धापितास्तीति अज्ञापयत्। उपप्रधानमन्त्री पोखरेलः अगतत् द्वन्द ग्रस्तेषु राष्ट्रेषु शान्तेः स्थापनायै अधुना विश्वस्य विभिन्नेषु राष्ट्रेषु पञ्चसहस्रमित नेपाली सेनायां कार्यरतायां सत्यां एषा संख्या दशसहस्रमिता प्रापयिष्यते। राष्ट्रपतिः विद्यादेवी भण्डारी भासते साहित्येन समाजस्य विकृति विसंगतिः प्रदर्श्य सदाचार नैतिकतयोः प्रवर्धने महत्वपूर्णा भूमिका निरूढा वर्तते। विश्व नेपाली साहित्य महोत्सवं गतदिने कैलाली जनपदस्य धनगढ़ी स्थाने उद्घाटयन्ती राष्ट्रपतिः भण्डारी अवदत् नेपाली कलया संगीतेन भाषया साहित्येन च विविधतायाः मध्ये एकतायां बलं प्रापितं वर्तते। असौ विश्व साहित्य महोत्सवेन नेपाली भाषा साहित्य संस्कृतीनां प्रवर्धने महत्वपूर्ण योगदानं प्रापयिष्यते इति विश्वासं व्यक्तवती। तदवसरे राष्ट्रपतिः भण्डारी शताब्दी पुरुषं सत्यमोहन जोशिनं लक्ष्यैकस्य एकादश सहस्राणां च रूप्यकैः सम्मानपत्रेण च सममानयत्। पूर्व प्रधानमन्त्री लोकेन्द्र बहादुर चन्द वरिष्ठ साहित्यकारः मदनाथ प्रसृतः अन्याः व्यक्तयोऽपि तदवसरे सम्मानिताः अभवन्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा आत्मनः प्रधानमन्त्री युतया मन्त्री परिषदा स्वस्य संलग्नतायाम् अन्येन केनापि निकायेन वा नेपाल ट्रस्ट कार्यालयस्य भूमे दीर्घकालिकानुबन्धन प्रदानस्य सम्बन्धे किमपि निर्णीतम् नास्तीति स्पष्टीकरोति। सभापतिना देउवा विधेन यो विज्ञप्तिर्माध्यमेन स्वस्य सहभागिताम् विना विहिते कस्मिन्नपि निर्णये स्वनाम संयोज्य विधातव्यान् विहितान् वा प्रचारान् प्रति गभीरा असहमति प्रकटिता वर्तते। सभापतिना देउवा विधेन प्रकरणमेतत् सुरक्षित मुद्रण यन्त्र क्रयण प्रसंगे सार्वजनिक भूतेभ्यः सप्ततेः कोटीनाम् श्रव्याभिलेखनात् नेपाल ट्रस्ट कार्यालयस्य अन्तर्गतस्य गोकर्ण फरेस्ट रिसोर्ट नाम्नः वन्यातिथि व्यवस्थापनाय दीर्घकालिकानुबन्ध प्रदान विषयिण्याः गभीरायाः अनियमिततायाः अन्येभ्यः प्रकरणेभ्यश्च ध्यानान्तरण प्रयत्नस्य रूपेण सम्मतम् अस्तीति आरोपितम् वर्तते इति समाचारः।